एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः परश्वः ज्येष्ठ मासस्य सप्तमे दिवसे प्रतिनिधिसभातः पुनः विश्वासस्य मतं गृहीता। प्रधानमन्त्रिणा प्रचण्डेन परश्वः ज्येष्ठस्य सप्तम दिवसाय विश्वासस्य मतस्य ग्रहणस्य विषयं संसदः कार्यसूच्यां स्थापयितुं संघीय संसद सचिवालयाय पत्रं प्रेषितवान्निति सभामुखस्य संचार परामर्शदाता शेखर अधिकारी अज्ञापयत्। सर्वकारी सहभागिना जनता समाजवादी दल नेपालेन गत वैशाखस्य एकत्रिंशे दिवसे प्रधानमन्त्रिणः प्रचण्डस्य नेतृत्वस्य सर्वकाराय प्रदत्तं समर्थनं प्रत्यावृत्य सर्वकारात् बहिर्भवनस्य पश्चात् प्रधानमन्त्रिणा पुनः विश्वासस्य मतं गृह्यमाणं वर्तते। संघीय संसदः सदनद्वयस्य ह्यस्तनदिवसाय उपवेशौ स्थगितीभूतौ वर्तेते। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलस्य सांसदै उत्थाय विरोध ज्ञापनस्य पश्चात् स्थगितीकृतः राष्ट्रसभायाः उपवेशः श्वः ज्येष्ठस्य षष्ठी दिवसे रविवासरे दिवा एकवादनाय आहूतो वर्तते। एवमेव प्रतिनिधिसभायाः ह्य एकादशवादनाय आहूतः उपवेशः विशेषकारणवशात् द्विवादनाय सारितः आसीत्। द्विवादनेऽपि उपवेशस्य उपवेशनम् असमर्थं सत् श्वः ज्येष्ठस्य षष्ठी दिवसे रविवासरे पूर्वाह्नस्य एकादशवादनाय उपवेशः आहूतो वर्तते। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन सहकारी प्रकरणम् आधृत्य संसदीय अनुसन्धान समितेः संघटनस्य याचनाम् अग्रे सारित्वा संसद अवरुद्धमाना वर्तते। सहकारी प्रकरणे संसदीय अनुसन्धान समितेः संघटनस्य याचनायां प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन सहितानि अन्य दलानि अपि एकमतानि सन्ति। नयाँ वानेश्वरवर्तिनी संसद भवने प्रमुख प्रतिपक्षिणः नेपाली कांग्रेस दलस्य प्रयासेन उपविष्टे उपवेशे संसदीय अनुसन्धान समितेः संघटनम् विधेयमेवेति निष्कर्षः प्रकाशितोऽस्तीति कांग्रेस दलस्य महामन्त्री गगन कुमार थापा अज्ञापयत्। एवमेव उपवेशेन परह्यस्तने प्रतिनिधिसभायाः उपवेशे सभामुखस्य भूमिकायां प्रश्नम् उद्भाव्य एतद् विषये सभामुखाय ध्यानाकर्षणं विधातुं निर्णीतमिति महामन्त्री थापा अबोधयत्। उपवेशे नेपाली कांग्रेस दलेन सहितानि लोकतान्त्रिक समाजवादी दल नेपालः, जनता समाजवादी दल नेपालः, राष्ट्रिय प्रजातन्त्र दलम्, राष्ट्रिय जनमोर्चा दलञ्च सहभागिनी आसन्। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री रेखा शर्मा भाषते राजनीतिक दलेषु सहमतिं धृत्वा संसद गतिरोधस्य अन्ताय सर्वकार गभीरो वर्तते। परह्य उपविष्टस्य मन्त्री परिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचारकर्मिण जिज्ञासां प्रत्युत्तरयन्ती मन्त्री शर्मा संसद गतिरोधस्य अन्ताय सर्वकारेण राजनैतिक दलैस्सह नैरन्तरेण विमृश्यमाणम् अस्तित्यतः सहमत्या समाधानम् अन्वेष्टुं शक्यते इति विश्वासम् अभिव्यनक्। संचार मन्त्री शर्मा समस्यानां समाधानाय दायित्ववाही भूत्वा एकस्या व्यक्तेरपेक्षयापि समग्र सहकारी क्षेत्रस्य समस्यानां समाधानोपायान् प्रति गभीरं भवितुं प्रमुख प्रतिपक्षी नेपाली कांग्रेस दलम् अनुरुणत। पत्रकार सम्मेलने मन्त्री शर्मा परह्य उपवेशेन मन्त्री परिषद उपवेशेन मन्त्री परिषद सदस्य प्रधानमन्त्रिणः कार्यालये प्रस्तुतं सम्पद विवरणं सार्वजनिकीकर्तुं निर्णीतम् अस्ति इति असूचयत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति विधिसम्मत न्यायिक प्रणाल्या एव देशे सुशासनस्य शान्तेश्च अवस्थायाः स्थापनं सम्भवति। नेपाल बार एसोसिएशन संघेन आयोजितं षोडशम् अखिल नेपाल विधि व्यवसायी राष्ट्रिय सम्मेलनम् ह्यः काष्ठमण्डपे उद्घाटयन् राष्ट्रपतिः पौडेलः देशे सुशासनाय बलम् अदात्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः न्यायपालिकायाः सुदृढीकरणाय संघम् इतोऽपि सबलं विधातुं सर्वकारः प्रतिबद्धोऽस्तीति प्रावोचत्। प्रधानमन्त्री प्रचण्डः अब्रवीत् न्यायपालिकायाः पुनः संरचनायै संविधानस्य क्रियान्वयनाय च सर्वकारः क्रियाशीलो वर्तते। कार्यक्रमे वरिष्ठाधिवक्ता पूर्व न्यायाधिवक्ता च सर्वज्ञ रत्न तुलाधरः अभिनन्दितः आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति नैजेन क्षेत्रेण निर्भयेन विद्युत् उत्पादनं विधातव्यम्। इपान इति नाम्नो स्वतन्त्र ऊर्जोत्पादक संस्था नेपालस्य द्वाविंशति तमाम वार्षिक साधारण सभाम सम्बोधयन् प्रधानमन्त्री प्रचण्डः दश सहस्र मेगावाट मिताया विद्युतः निर्यातस्य अवस्था देशस्य समृद्धये ऐतिहासिकी उपलब्धि भविष्यति इति विश्वासम् अभिव्यनक् प्रतिवेशिने भारताय दशसु वर्षेषु दश सहस्र मेगावाट परिमिताया विद्युतो निर्याताय दीर्घकालिकी संविदा सम्भूता अस्ति भारतस्य प्रसारण प्रणाल्या माध्यमेन बंगलादेशाय अपि विद्युत निर्यातस्य व्यवस्था विधीयते इति प्रधानमन्त्री प्रचण्डः असूचयत् नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भाषते नेपाली कांग्रेस दलेन संसद अवरोधम कृत्वा व्यर्थम समय याप्यमानो वर्तते पर्सा जनपदे ह्य आयोजिते कार्यक्रमे अध्यक्ष ओली नीति कार्यक्रमान् पारितीकृत्य अस्यैव ज्येष्ठ मासस्य पञ्चदशे दिवसे आयव्ययकस्य प्रस्तुतेः बाध्यावस्था स्थिति कारणात् संसद संचालनम् आवश्यकम् अस्तीति बलं प्रादात् ह्य एव बारा जनपदस्य प्रसोनी ग्रामपालिकायाः नवनिर्मितं प्रशासनिकं भवनम् उद्घाटयन् अध्यक्ष ओली संसदि अनावश्यकं वदता नेपाली कांग्रेस दलेन संसद गरिमा न्यूनीकृत स्थिति च आरोपयत् उपप्रधान परराष्ट्र मन्त्री नारायण काजी श्रेष्ठ निगदति नेपालस्य शिक्षा क्षेत्रस्य अर्थक्षेत्रस्य च विकासाय रूसदेशीय सर्वकारस्य सहयोग महत्वपूर्णो वर्तते रूसदेशे उच्चशिक्षां गृहीत्वा नेपालस्य विभिन्नेषु क्षेत्रेषु क्रियाशीलानां व्यक्तीनां मित्रकुञ्जनाम्न्याः संस्थायाः सप्तपञ्चाशत्तमस्य वार्षिकोत्सवस्य अवसरे आयोजितं सम्मेलनं ह्य काष्ठमण्डपे उद्घाटयन् उपप्रधानमन्त्री श्रेष्ठ रूस युक्रेन युद्धस्य विषये नेपालः तटस्थोस्तीति स्पष्टीकृतवान् कार्यक्रमे नेपालस्य कृते रूसदेशस्य राजदूतः अलेक्सी नोविकोव नेपालस्य आर्थिक सामाजिक विकासाय रूस सर्वकारस्य सदैव सहयोगो भवतीति प्रावोचत् राष्ट्रपतिना रामचन्द्र पौडेलेन नेपालकेतिहासस्य साहित्यस्य शिक्षायाश्च क्षेत्रेष् इतिहासकारेण ज्ञानमणि नेपालेन प्रापितं योगदानं नेपाल नेपालीनां कृते सदैव स्मरणीयमस्तीति प्रोक्तं वर्तते इतिहासकारस्य नेपालस्य निधनस्य समाचारेण आत्मना दुःखम् अनुभूतम् इति राष्ट्रपतिना पौडेलेन ह्य प्रेषिते समवेदना सन्देशे उल्लिखितं वर्तते इति समाचारः।